नमस्ते। ആരാധാമഹേ വാക്യകാരം വരുചിം ഭാഷ്യകാരം പതഞ്ജലിം പാണിയും സൂത്രകാരം ച പ്രണതോസ്മി മതിത്രയം। സംഖ്യാവാചക ശബ്ദാനാം വിഷയേ ചിന്തനം പ്രചലതി। तत्र संख्यावाचकानां लिंगं वचनं प्रक्रिया इत्येते विषयाः गतपाठे उक्ताः। सो वी कैन सी इन दिस चार्ट तत्र लिंगं लिखितमस्ति। एक द्वि त्रि एते चतुर् षट् लिंगत्रये भवन्ति। अग्रे स्त्रीलिंगे एव देन् शत सहस्र लक्ष इत्यादि नपुंसकलिङ्गे प्रक्रिया कथं भवति एतेषां शब्दानाम् इत्यपि उक्तम्। इदं सर्वं गतपाठे एव दर्शितं। तत्र चतस्रः इति रूपविषये प्रश्नः आसीत्, कथं चतस्रः इति प्रक्रिया कथम् इति प्रश्नः कृतः। तत् मया गतपाठेन उक्तं, तत् वदामि। अत्र इदं मया पूर्वं दर्शितम्, ऐ शोड् दिस् प्रीवियस्ली। पूर्वसवर्णदीर्घः कथा प्रवर्तते कदा न प्रवर्तते इति विषये इदमस्ति। चतस्रः इत्यत्रापि चतस्रः चतसृ अस् इदं ऋकारान्तमस्ति। ऋकारान्तपदम् अतः प्रथमं किं प्राप्तं, फस्ट् इको यणति इति प्राप्यते, बिकास् इट् इस् ऋकार इस् इक् एण्ड् इट्स् फालोड् बै अच्, अतः इकः यण् अचि इति प्राप्तम्। किन्तु देन् दिस् प्रथमयोः पूर्वसवर्णः कम्स्, अतः प्रथमयोः पूर्वसवर्णः इत्यनेन इकोणचि इत्यस्य बाधनं भवति। बिकास् इस् प्रथमा विभक्ति बहुवचन, अस्य प्रथमा विभक्ति बहुवचन, इट् केन् बि द्वितीय विभक्ति बहुवचन आल्सो, अतः पूर्वसवर्णदीर्घः प्राप्तः। पूर्वसवर्णदीर्घ मीन्स् दीर्घ आफ्टर् द प्रीवियस् लेटर् रिप्लेसेस् बोथ् लेटर्स्। अतः ऋकारः पूर्वः, तस्य दीर्घः उभयोः स्थाने प्राप्तः, पूर्वसवर्णदीर्घः। किन्तु तस्यापि अपवादः आसीत्, अत्र मया लिखितं दीर्घारान्त शब्दः चेत् तदा सर्वनामस्थाने परे गुणः प्राप्तः, अन्यथा पूर्वसवर्णदीर्घः प्राप्तः। तत्र सूत्रमासीत् ऋतोङि सर्वनामस्थानयोः, सर्वनामस्थानपरे पितरः इत्यत्र पितृशब्दः, तत्र गुणः प्राप्तः। किन्तु द्वितीयभक्तिभोचने पितॄन् अत्र तु पूर्वसवर्णनिर्धः भवति इति एवं गुणः प्राप्तः आसीत् प्रथमाभक्तेः बहुवचने, द्वितीयभक्तेः बहुवचने पूर्वसवर्णनिर्धः एव प्राप्तः। किन्तु तत्सर्वं बाधित्वा अचि र ऋतः इति सूत्रं प्रवर्तते, अयम् अपवादः अस्ति। अपवादः तु आल् दि सूत्रास् यतोहि सर्वनामस्थानयोः प्रथमः पूर्वसवर्णः, सर्वेषामपि अयम् अपवादः अस्ति, अतः अचि र ऋतः इति सूत्रं प्रवर्तते। किं भवति ऋतः, ऋत ऋत् ह्रस्वऋकारान्तशब्द ऋतसृ ऋतः अचि इति सप्तमी। So when it is followed by ach, achi pare, r, nama repha. So r, this rukara will be replaced with repha, which is the meaning. It is similar to yana-sandhi, ko-yana-chi. So the r will be replaced with repha. So chatashriya becomes cha ta su ru evam bhavati cha ta su ru as chatashraha. Vastaha is like Ensanti only, but there are many, there are apavadas to Ensanti. Therefore, we can't apply this sutra, Ikovanati. Therefore, Panini created another rule, Achira Rataha. Tadra Rukarasya Stane Repaha Bhavati. Tada Chatasraha Iti Rupam. Tada Mayava Dityaya Bhakti Bahuvachane Api Chatasraha Iti Rupam. So, Achira Rataha Iti Sutram Pravartate. अस्तु एवञ्च चतस्रः इति रूपं सिद्धम् Shash, Pancha, I think I explained in these Shabdas also. Pancha, Shatta, Ashta and Navadasha. Then there was a question, what are the words for other? After, because I mentioned up to Laksha, I think, in the previous class. So, whether there are other words for other Sankhyas. So, this is given in Leelavati. Bhaskaracharya, who wrote a book named Leelavati, is on mathematics. So there he mentions all these words. So is ekam, dasha, then shatam, sahasram, ayutam, laksham, prayutam, koti, this is a sriringa shabda, koti, then arbudam, abjam, karvam, nikharvam, Mahapadmam Shankuhu, Ukaranta Pullinga Shabdaha, Shankuhu, and Jalakhi, again Ikaranta Pullinga Shabdaha, Antyam Madhyam Pararatham. So these words are given. So Etavantaha Shabdaha Santi, Agre. Tatra Atikena, Napumasakalinga Shabdaha Eva Santi, Kevalam Kotihi Tisiringi Asti, Shankuhu Jalakhi. Eto Do. Pullinge, ukarantah ekah, ikarantah anyah. Does this sutra have a range of validity or always? Yeah, this Achira Rata is applicable to Tisru and Chatasru Shabda. Only for these two words. So it is an exception. It's applicable to Tisru and Chatasru. Therefore it becomes Tisraha and Chatasraha. Okay. So, what rule we apply for Matru? Matru I explained, because it's Virukaranta Sthiringa Shabda. It was explained previously. Okay. So, these are the words which we can use. Then, yeah. Then Vimshati. Yeah. Vimshati Shabda is Vikaranta. Ataha it's like a Nikaranta Sthiringa Shabda. Therefore, it's like Madhi Shabda. Vimshatihi, Vimshatim, Vimshatya, Vimshataye, Vimshatyai, like Matyai, Mataye, there are two forms. In Mati Shabda also. Similarly, this also has two forms. Vimshatehe, Vimshatyaha, Vimshatehe, Vimshatyaha, Vimshatau, Vimshatya. And Vimshati is a Takaranta Shabda. So, त्रिंशत् त्रिंशतम् त्रिंशत त्रिंशते त्रिंशतः त्रिंशतः त्रिंशति इति रूपाणि भवन्ति. इदानीं प्रयोगविषये संख्यावाचकशब्दानां प्रयोगविषये केचन विशेषाः सन्ति, तत् किञ्चित् वक्तुमिच्छामि. प्रायः संख्यावाचकाः शब्दाः विशेषणत्वेन प्रयुज्यन्ते. जनरलि वि यूस् दि संख्यावाचक एज विशेषण. उदाहरणार्थम् एकः बालकः, एकं पुस्तकम्, एका महिला, एवं विशेषणत्वेन संख्यावाचकशब्दानां प्रयोगः भवति. नवदशपर्यन्तं नवदशपर्यन्तं सो टु 19 नवदशपर्यन्तम् एतेषां विशेषणत्वेन एव प्रयोगः. शतस्रः बालिकाः, चत्वारि फलानि, नवदशजनाः, नवदशपर्यन्तं विशेषणत्वेन एव प्रयोगः भवति. नवदशतः अग्रे ये शब्दाः सन्ति आफ्टर् विंशति आन्वर्ड्स्, नवदशतः अग्रे विंशतितः आरभ्य ये शब्दाः सन्ति ते विशेषणत्वेन दे केन् बि यूस्ड् एस् विशेषण केन् बि यूस्ड् एस् विशेषण आर् दे केन् बि यूस्ड् एस् ओन्लि संख्यावाचक संख्यावाचकत्वेन अपि तेषां प्रयोगः भवितुमर्हति. फार् एक्साम्पल् ऐ विल् शो एक्साम्पल्. इफ् ऐ यूस् एस् अ विशेषण देन् विंशतिः जनाः, विंशतिः जनाः. This is, I am using the Vimshati Shabda as Visheshana. I can use this Vimshati to mean only Sankhya. Then the sentence will be Jananam Vimshatihi. Jananam Vimshatihi. Here in this second sentence, Jananam Vimshatihi, Vimshatihi is not an Vimshati is not a Visheshana, it's not qualifying Jana. But in Vimshatihi Janaha, Vimshatihi is Visheshana. If it is Visheshana, then the previously mentioned thing, that is, it is always Ekavachana. Previously I mentioned this Vimshati etc. They are always Ekavachananta. So if it is Visheshana, then they are always Ekavachananta. We should not use Divachana or Bahuvachana or Vimshati Shabda if we are using them as Visheshana. But if we are using the Vimshati etc. like this, means for Sankhyavachakatvena Edi Prayoga Kriyate Tarihi, then we can use Divachana and Bahuvachana also. That is, I can say Jananam Vimshatihi. It means 20 people. Yeah, I don't know whether how we use in English. So it is not 20 people. Actually, I am not using as a Visheshana here. So, and if I say जनानां विंशति हरिः हरि विंशति इट मीन्स 40 सो 40 इन नंबर पीपल आर 40 इन नंबर सो दैट इज जनानां विंशति और इफ आई से जनानां विंशतयः यूज बहुवचन देन इट मीन्स सो 60 आर मोर अधिकाः जनाः सन्ति इत्यर्थः सो जनानां विंशतिः जनानां विंशति जनानां विंशतयः इत्येवं प्रयोगः भवितुम् अर्हति यू केन् यूज दिस विंशति शब्द लाइक दिस बट हियर विंशति इज नॉट अ विशेषण इफ यू यूज दैट एज अ विशेषण विंशतिः जनाः इत्येवं यदि प्रयोगः क्रियते देन दिस ऑलवेज एकवचनांत यू शुड नॉट यूज द्विवचन और बहुवचन इफ यू वॉन्ट टू यूज द्विवचन और बहुवचन विंशति एक्सेट्रा देन वी हैव टू यूज एज संख्यावाचक हियर इट इज कॉल्ड There are two words in Sanskrit, Sankheya Vachaka and Sankhya Vachaka. You write here. Sankhya and Sankheya. Sankheya means when we use Sankhya Vachaka as Visheshana, then it's called Sankheya. Like in this example, Vimshatihi Janaha, I'm using this as a Visheshana. Then it's called Sankheya. If I use as only Sankhya Vachaka, then it's called Sankhya. Sankhya Vachaka, for example, Janana Vimshatihi, here it is Sankhya Vachaka. Vimshati Shabda is Sankhya Vachaka. In Vimshatihi Janaha, it is Sankheya Vachaka. If I am using as Sankhya Vachaka, Then always we have to use Shashti Bhakti here. So Jananam Vimshatihi. Jananam is Shashti Bhakti. So always it will be Shashti. Like that we can say Jananam Trimshat. Jananam Trimshat. Jananam Shatam. Or Balakanam Shatam. Balakanam Shate. Balakanam Shatani. इत्येवं प्रयोगः भवितुमर्हति सो नवदशपर्यन्तम् अप् टु नवदश दे केन् बि यूस्ड् एस् ओन्लि सङ्ख्येयवाचक अप् टु नवदश दीस् वर्ड्स् केन् बि यूस्ड् एस् सङ्ख्येयवाचक ओन्लि इट् मीन्स् दे केन् बि विशेषण बट् दे कान्ट् बि यूस्ड् लैक् दिस् फार् एक्साम्पल् ऐ कान्ट् से जनानां नवदश सो इट् इस् राङ्ग् Up to Navadasha, we can't use like this. We have to use only as Visheshana. But Vimshati onwards, Vimshatitaha Agre, we can use these words as Sankhya Vachaka and Sankheya Vachaka. We can say Vimshatihi Janaha or Jananam Vimshatihi. Does it mean 100 students? No, Jananam, if Balakanam Shatam, if I say Balakanam Shatam, it means 100 in number. So students are 100 in number, this is the meaning. So Balakanam Shatam. But here I am not using the Shatam as an adjective. I'm not saying 100 students, but students are 100 in number. Yeah, many groups of 20 people, correct. Yes, so we can, if there is many groups of 20 people, then we can say Jananam Vimshatayaha. Jananam Vimshatayaha Santi. प्रयोगः कष्टमेव ओन्लि द नोन् पीपल् केन् अण्डर्स्टाण्ड् एतादृशः प्रयोगः दृश्यन्ते बिकास् इट्स् नाट् अप्रसिद्धप्रयोगः न दिस् इस् वेरि फेमस् इन् संस्कृत् एतादृशप्रयोगाः जनानां विंशतिः, जनानां शतम्, एतादृशप्रयोगाः संस्कृते प्रसिद्धाः सन्ति. काव्यादिषु एतादृशप्रयोगाः दृश्यन्ते सुलभतया, पुनः अन्यत्रापि प्रयोगः क्रियन्ते. अतः सामान्यतः आरम्भे, तत्र संस्कृतस्य आरम्भकाले इदं न पाठयन्ति, अतः अन्यत्र अप्रसिद्धं भवति अन्यासु भाषासु इति कदाचित्. किन्तु संस्कृते एतादृशप्रयोगाः प्रसिद्धाः एव सन्ति. पुनश्च एण्ड् वन् मोर् थिङ्ग्, विंशति इत्यादयः शब्दाः नित्ये एकवचनान्ताः. इफ् यु आर् यूसिङ्ग् एस् विशेषण, यदि विशेषणत्वेन प्रयोगः, तर्हि सर्वदापि एकवचनान्ताः एव, पुनः स्त्रीलिङ्गे एव वर्तन्ते. अतः विंशतिः जनाः, विंशतिः जनाः विंशतिः जनाः जनः जनाः दो जनाः इस् इन् बहुवचन, विंशतिः इस् एकवचन ओन्लि, दो इट् इस् विशेषण. सामान्यतः विशेषणं चेत् सुन्दराः जनाः, सुन्दरः सुन्दराः, यदि तत्र विशेष्यं विशेष्यं बहुवचने अस्ति तर्हि विशेषणस्यापि बहुवचनप्रयोगः भवति. किन्तु संख्यावाचकानां विषये तथा नास्ति. किमर्थं? तेषां सर्वदा एकवचनम्, अत्र विंशति इत्यादीनां विंशति एक्सेट्रा दे आर् इन् एकवचनम् ओन्लि, अत्र सर्वदा एकवचनमेव. अतः जनाः इति बहुवचनं चेदपि विंशतिः जनाः इत्येव प्रयोगः. यदा विशेषणत्वेन प्रयोगः क्रियते तदा एकवचनमेव. अतः विंशतिः जनाः, विंशतिः बालिकाः, विंशतिः बालकाः, उभयत्रापि विंशतिः इत्येव, परिवर्तनं न भवति. स्त्रीलिङ्गे एकं रूपं, पुल्लिङ्गे एकं रूपम् इति नास्ति. विंशतिः बालकाः, विंशतिः बालिकाः इत्येव. अन्यत् इतोपि अन्यत् उदाहरणं दर्शयामि. जनेभ्यः इत्यस्ति, शतम् इति प्रयोगः न भवति. शतं जनेभ्यः भोजनं ददातु, शतं जनेभ्यः किमपि पुस्तकं ददातु, किमपि ददातु इति ददातु, शतं जनेभ्यः. शत इस् अ विशेषण टु वर्ड् जन. अतः जनेभ्यः इति चतुर्थी विभक्ति, अतः शतं जनेभ्यः इति प्रयोगः न भवति. किन्तु शताय जनेभ्यः ददातु, यु हेव् टु यूस् चतुर्थी विभक्ति आफ् शतशब्द. शताय जनेभ्यः ददातु इत्येव प्रयोगः. आर् वी केन् डु समास शत जनेभ्यः इति वक्तुं शक्यते. इट् इस् ओके इफ् यु वाण्ट् टु स्प्लिट्, यदि अत्र विभागं कर्तुम् इच्छामः तर्हि शताय जनेभ्यः इति वक्तव्यम्, शतं जनेभ्यः इति वक्तुं न शक्यते. किमर्थं? शतशब्दः विशेषणम्, इति विशेषण, किन्तु बहुवचनं न प्राप्नोति. दो जनेभ्यः इति बहुवचनमस्ति, शतशब्दस्य बहुवचनं न भवति. किमर्थं न भवति? एतस्य सर्वदा एकवचनमेव, एकवचनान्तः एव अयं शब्दः. अतः शताय जनेभ्यः ददातु इति प्रयोगः. बट् इति इफ् यु यूस् पञ्च आर् पञ्च षट् एक्सेट्रा, फार् एक्साम्पल् ऐ विल् टेक् पञ्चशब्द पञ्च एण्ड् जनेभ्यः, इफ् ऐ यूस् जनेभ्यः हियर् पञ्चन् शब्द इस् आल्वेस् अप् टु नवदश, अप् टु नवदश एक्सेप्ट् एकम् अण्ड् द्वे, दीस् वर्ड्स् आर् इन् बहुवचन, सर्वदा बहुवचनान्तः एव शब्दाः. यदि नवदशपर्यन्तं ये सन्ति ते सर्वदा बहुवचनान्ताः. अतः अत्र पञ्चभ्यः जनेभ्यः ददातु इति प्रयोगः. पञ्चभ्यः जनेभ्यः ददातु। किमर्थम् अत्र बहुवचनमागतं पञ्चभ्यः इति, नवदशपर्यन्तं ये शब्दाः सन्ति ते सर्वदा बहुवचनान्ताः एव, विंशतितः अग्रे ये शब्दाः सन्ति ते सर्वदा एकवचनान्ताः एव, अतः अत्र शताय जनेभ्यः इति प्रयोक्तः, अत्र पञ्चभ्यः जनेभ्यः इति प्रयोक्तः। अतः यदा सङ्ख्यावाचकानां प्रयोगः क्रियते तदा सः एकवचनान्तो वा बहुवचनान्तो वा इति स्मृत्वा तत्र प्रयोगः करणीयः भवति। इफ् यु वाण्ट् टु यदि एतादृश क्लेशः So if you want, if you don't want to use like this, then we have to do samasa. Pancha janebhyah, or shata janebhyah, vimshati janebhyah. Ayam samasa kartum shakyate, tada klesho nasti. Kintu yadi samanyatah, but generally in kaviya grantha, they don't do samasa with sankhya shabda. सङ्ख्याशब्देन सह समासः संस्कृते किञ्चित् अप्रसिद्धः एव अस्ति, किन्तु सामान्यतः न कुर्वन्ति, तदा एवं प्रयोगः करणीयः। समासः क्रियते चेत् एतादृशप्रयोगक्लेशः न भवति। एण्ड् वन् मोर् panja if I use panja so for example kati rupyakani santi yes kati rupyakani santi I have to say panja will say panja santi panja rupyakani santi rupi panja rupyakani santi but if I want to say shata then shatam asti it's not santi कति रूप्यकाणि सन्ति शतम् अस्ति पञ्च सन्ति बट् शतम् अस्ति किमर्थं शतशब्द इस् आल्वेस् एकवचनान्त अतः शतम् अस्ति शतं रूप्यकाणि चेत् इट्स् ओके बट् इफ् ऐ यूस् ओन्लि शतम् अस्ति पञ्च सन्ति पञ्च इत्युक्ते बहुवचनान्त बट् शतम् इस् आल्वेस् एकवचनान्त बिफोर् वी हव् टु कीप् द वचन आफ् दीस् वर्ड्स् इन् मैण्ड् अस्तु This is about Sankhyavataka Shabdas. Let me say it. Parasad.
नमस्ते महोदय विंशति विंशतिः विंशति विंशतेः इति मम जनानां विंशतिः तत्र समासं करोमि चेत् जनविंशतिः जनविंशति जनविंशतयः इति त्रिविधं कर्तुं शक्यते वा समासः
प्रश्नः श्रूयते अस्तु प्रायः संख्यावाचकसम्बद्धविषयाः समाप्ताः. Some words are there like Prathamaha, Dutiyaha, Tritiyaha, say third, fourth. These words are used in something. Prathamaha, Dutiyaha, Tritiyaha, Chaturthaha, Panchamaha, and Shashtaha, Saptamaha, like that. And after Vimshati, so Vimshati Sama, Sama, iti prayavartiyate. These are actually Tadhita Pratyaya. We will study in Tadhita section. Okay. Astu tarihi ya. Now, so Subantana Vishay Samanataha Sarvam Uktam. So Visheshena Dra Bhava Shabda Santeva Halantaha Ajantaha Halanteshu Ketana Prasiddha Shabdaha Uktaha Ajanteshu Api Ketana Prasiddha Shabdaha Tesham Prakriya Katham Uktam. एवं संख्यावाचक शब्द सन्ति संख्यावाचकानां विषये उक्तम्. एवं अव्ययानि अपि वर्तन्ते. अव्ययानि अपि सुबन्तान्येव अव्ययम् उदाहरणार्थं च इत्यस्ति और देयर इज वा एक्सेट्रा. सो दीस अव्ययास आर कंसिडर्ड एज सुबन्तास बाय पाणिनि. देन वाई दिस सुप इज नॉट विजिबल हियर बिकॉज देयर इज अ सूत्र अव्ययात् आप सुपः. अव्ययात् आप सुपः इति सूत्रमस्ति. तेन सूत्रेण सुपः लुक् न अदर्शनं भवति. सो आफ्टर् अव्यय द सुप् डिसपियर. अतः सुप् न दृश्यते. किन्तु एते सर्वे अपि सुबन्ताः. अव्ययान्यपि सुबन्तान्येव. अव्ययानि सामान्यतः तत्र अव्ययानि प्रदन्त अव्ययानि सन्ति. तम् अव्ययास् आर् प्रदन्त अव्ययास्. फार् एक्साम्पल् पठितुं गन्तुं प्रदन्त अव्यय मीन्स् विच् द वर्ड् विच् एण्ड्स् वित् कृत् प्रत्यय. इट् इस् प्रदन्त अव्यय. फार् एक्साम्पल् पठितुं गन्तुम् एक्सेट्रा. And there are some tadhitanta avyayas. For example, we use itaha, tataha, kutaha, etc. These are tadhitanta avyayas. It means this word ends with tadhita pratyaya. So this taha is actually tadhita. So these are called tadhitanta avyayas. Kradanta avyayani santi, tadhitanta avyayani santi. And other avyayas, like chava, etc. They are not kradantas or neither kradantas, not tadhitantas. Tarsha avyayani santi. Apadataha. And one more type is, even after doing samasa, avyayibhava samasa. When we do avyayibhava samasa, tada api avyayam bhavati. Udaharanartham, yatha shakti. यथा शक्ति और प्रत्येकम. आई थिंक वी नो दिस वर्ड. प्रत्येकम एवरीवन. प्रत्येकम दीस आर एग्जांपल्स ऑफ अव्ययीभाव समास. एंड यदा अव्ययीभाव समास क्रियते सः शब्दः अपि अव्ययं भवति. अव्ययीभाव समासेन यः शब्दः सिद्ध्यति तदपि अव्ययं भवति. एवञ्च अव्ययीभावसमासेन सिद्धम् अव्ययम्. देर् केन् बि अव्यय वित् अव्ययीभावसमास. आर् देर् केन् बि कदन्त अव्यय आर् तद्धितान्त अव्यय आर् अदर् अव्यय निच्छ वा एक्सेट्रा. एवञ्च एतादृशानि अव्ययानि सन्ति संस्कृते. किन्तु सर्वाणि अपि अव्ययानि सुबन्तानि इति परिगण्यन्ते. सर्वेभ्यः अपि अत्र सुप् भवति ततः परं तस्य लोपः भवति. అవ్యయాద్ ఆప్సపః సూత్ర సంఖ్య, సూత్ర సంఖ్య కాస్తి అవ్యయాద్ ఆప్సపః 2482 2482 అవ్యయాద్ ఆప్సపః ఇది సూత్రం. ప్లీజ్ ఎక్స్ప్లెయిన్ ప్రత్యేకం. ప్రత్యేకం మీన్స్ ఎవ్రీ వన్, బట్ యాక్చువల్లీ వెన్ వీ యూస్ ప్రత్యేకం జనరలీ వీ మేక్ మిస్టేక్స్ ఇఫ్ వీ యూస్ సంస్కృత్ సెంటెన్సెస్. ఫర్ ఎగ్జాంపుల్ ప్రత్యేకం వి సే సమ్టైమ్స్ ప్రత్యేకస్య ఛాత్రస్య టు సే ఆఫ్ ఎవ్రీ స్టూడెంట్ ప్రత్యేకస్య ఛాత్రస్య ఇది వదామహ. బట్ ప్రత్యేకం ఇస్ అవ్యయ, దెర్ఫోర్ ఇట్ డజంట్ గెట్ ద ఫామ్ ప్రత్యేకస్య. ప్రత్యేకస్య ఇతి రూపం న భవతి. అతః ప్రత్యేకం ఛాత్రస్య ఇత్యేవ ప్రయోగః. ప్రత్యేకస్య ఛాత్రస్య ఇతి ప్రయోగః న భవతి. కిమర్థం న భవతి? ప్రత్యేకం ఇస్ అవ్యయ, అవ్యయభావ సమాస సహితం అవ్యయం. అతః ప్రత్యేకం ఛాత్రస్య. ఇఫ్ యు వాంట్ టు యూస్ షష్ఠీ విభక్తి దెన్ వి హావ్ టు యూస్ అదర్ వర్డ్స్ లైక్ ఏకైక, ఏకైకస్య ఛాత్రస్య ఇది వక్తుం శక్యతే. ఏకైకస్య ఛాత్రస్య హియర్ ఏకైక ఇస్ నాట్ అవ్యయ, అతః ఏకైకస్య ఛాత్రస్య ఇది ప్రయోగ భవితుమర్హతి. బట్ ఇఫ్ యూస్ ప్రత్యేకం దెన్ ప్రత్యేకం ఛాత్రస్య ఇది ప్రయోగ. కిమర్థం? ప్రత్యేకం ఇది అవ్యయ. కింటు అత్ర ఇదం అవ్యయభావ సమాసేన సిద్ధం అవ్యయం అస్తి. ఓకే, అవ్యయాత్ ఆప్ సుపః ఇది ఇత్ర విభాగ. అవ్యయాత్ ఆప్ పునః సుపః. ఆప్ ఇత్యనేన స్త్రీ ప్రత్యయ గ్రహణం. స్త్రీ ప్రత్యయ టాప్ డాప్ టాప్ దేర్ ఆప్ హియర్. సో ఈవెన్ ద స్త్రీ ప్రత్యయ డిసపియర్ ఆఫ్టర్ అవ్యయ. Therefore, avyayat aap supah, supratyaya and sti pratyaya, like tap tap tap, they get lopa. Therefore, this is the meaning of this sutra, avyayat aap supah. Astu? So, astu. Enta etavanta subanta. So, subanta vishe samaptam. సుబంతా ద్విధా హరంతా పునః అజంతా తేషాం విషయ ఉక్తం. సంఖ్యావాచకా తద్విషయ ఉక్తం. తృతీయం అవ్యయం, అవ్యయాన్యపి సుబంతాన్యేవ. కింటు సుప్రత్యయః న దృశ్యతే తేషాం తత్ర అదర్శనం భవతి. అస్తు, ఇది ప్రశ్న అస్తి పృచ్చంతు, అన్యథా అత్ర సమాపయామః. కెన్ బికాస్ సో దిస్ టాపిక్ ఎండెడ్ for I want to stop here itself. So next topic will be karaka. Karaka means the meaning of vibhakti. Dhiya, Chaturthi, Panchami. So meaning of vibhakti is the next topic. Kalyanati.
Hi, good evening. I just have a quick question. For example, if you want...
Just a minute.
Can I hear? Hello?
It's not audible. It seems... No, why?
I don't know. You cannot hear now? Hello? Oh, boy.
శ్రూయతే ఇదని.
కెన్ యూ హియర్ నౌ?
ఎస్ ఎస్ ఎస్.
ఓకే, యా, గుడ్ ఈవినింగ్. ఐ వాస్ జస్ట్ గోనా ఆస్క్ యు ఇఫ్ ఐ వాంట్ టు సే 1944 నార్మలీ స్టార్ట్ అట్ ద రైట్ సైడ్ బట్ ది వెస్టర్న్ సిస్టమ్ స్టార్ట్స్ అట్ ద లెఫ్ట్ సైడ్, వాట్ ఇస్ ద మోస్ట్ కామన్లీ యూస్డ్ వే?
ఓకే, ఇన్ సంస్కృత్ వి స్టార్ట్ ఫ్రమ్ హియర్. So,
you got to say chatvara adhika.
Chatustatvarimshat, 44. Chatustatvarimshat adhika.
Navashata.
Navashatottara ekasahasram.
ये तो बड़ा मुश्किल है बोलने में.
So this is 44 and navashata 900, then 1000. Chatushtatvarimshat adhika navashatottara ekasahasram.
So why couldn't you say on the left to the right, you know, ekasahasra navashata chatushchatvarimshat? What is wrong with that?
Actually, means there is no wrong, but I think this method they adopted in the mathematicians, the Indian mathematicians, they adopted this method. I don't know exactly why they adopted. Maybe they were writing shlokas. No, though in mathematics also they used to write the shlokas. I think they found this is more helpful. I don't know exactly why they use, but mathematicians, they were using like this. Same is followed here.
But it's understandable either way, right?
Correct. Yeah. Yes. Okay. So, arthajnane dosaha nasti. Upayata api arthajnanam bhavati. Kintu evam atra prayogaha prasiddha asti samskate. Vishena, because they have taken from this Ganita Shastra, and in Ganita Shastra they are using like this. I will check why this method is used. Pashyami.
Okay, dhanyavada.
Parvatanathanji.
Namaste, idanim shruyate bhavata iti sammanye. 1944 tatra chaturvimshati adhika ekona vimshati shatam ityapi vaktum shakyate va.
Shakyate.
Tadeva.
Yes. Same like ekatrimshat adhika chaturshatottara panchasahasram. Samyak Prasad Mahodaya, samyak asti.
It is like little Indian system versus big Indian system in computer science.
I can hear, yes, Ankanam Vamatogati, Samek. Ankanam Vamatogati. So this is famous in Sanskrit. There can be some, I will check what is the reason. But there should be some reason why the mathematicians use like this. So they use forward this method, Vamatogati.
ओके अस्तु तर्हि प्रश्नः समाप्तः अत्र पर्वतनासन्धि पुनः प्रश्नः अस्ति वा
अङ्कानां वामतो गति एतत् सूत्रं वा
किं संख्यानां वामतो गतिः इति वा
भवता उक्तं तत् सूत्रं वा
नैव पाणिनेः सूत्रम् पाणिनेः न कुत्रापि ग्रन्थे अस्ति गणितग्रन्थे कुत्रापि अस्ति
अन्यः प्रश्नः पूर्वम् अहं पृष्टवान् यदा भवता श्रोतुम् अशक्यम् अभवत् इदानीं पृच्छामि जनानां विंशतिः जनविंशतिः जनानां विंशति जनविंशति जनानां विंशतयः जनविंशतयः त्रिधा समासं कर्तुं शक्यते वा
नैव अतः समासः न भवति
विभज्य प्रयोगः जनानां विंशतिः इत्येव
जनान् जनविंशतिः इति तत् समीचीनम्
न समासः नास्ति तत्र
धन्यवादः धन्यवादः
अस्तु तर्हि अत्र समापयामः भाष्यकारः पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्.